हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतसरजां चन्द्रां हिरणमयीं लक्ष्मीं जातवेदोम आवह जातवेदो लक्ष्मीमनपगामिनीम् यस्यां हिरण्यं विन्देयं कामशवं पुरुषानहम् अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीं श्रियदेवीमुपहुवये श्रीरमा देवी जुषताम् स्मिताँ हिरण्य प्राकारा मार्द्राञ्ज्वलती तृप्तान्तर्पयती पदमे स्थितां पदमवर्णान्ताभिहो बहुवये श्रियम् चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियल्लोके देवजुष्टामुदारां तां पद्मिनीमीं शरणमहं प्रपद्ये लक्ष्मीरमे नश्यतां त्वां वृणे आदित्यवर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलादितपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपयेतु मां देव सख कीर्तिश्च मणिना सह प्रादुर्भूतोऽसुराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे क्षुत्पिपासामलाञ्ज्येष्ठामलक्ष्मी नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वान्निर्णुत मे गृहात् गन्धद्वारान् दुराधर्षान् नित्यपुष्टां करीषिणीम् ईश्वरीं सर्वभूतानां तामिहोपहुवये श्रियं मनसः काममाकूतिं वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि शरीश्रयतां यशः करदमेन प्रजाभूता मयि सम्भवकरदमा श्रियं वासय मे कुले मातरं पदममालिनीम् आपसृजन्तु स्निगधानि चिकले तव समे गृहे निच देवीं मातरं श्रियं वासय मे कुले आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पदममालिनीम् चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ताम आवह जातवेदो लक्ष्मी मनपगामिनी यस्याम हिरण्यं प्रभूतिं गावो दास्योऽश्वान् विन्देयं पुरुषानहं यश्चिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् सूक्तं पञ्चदशरचं च श्रीकामः सततं जपेत।